इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। आदौ प्रमुखाः वार्ताः। प्रशासनेन अद्य वक्फ संशोधन विधेयकं निरीक्षणार्थं संयुक्त संसदीय समितिं प्रति प्रेषितम्। विनियोग विधेयक जम्मू कश्मीर विनियोग विधेयक वित्त विधेयकानि राज्यसभायां चर्चारतानि सन्ति। बांग्लादेशे नोबेल पुरस्कार विजेतुः प्रोफेसर मोहम्मद यूनुसस्य नेतृत्वे अल्पावधिकरूपेण नियोजित प्रशासनम् अद्य रात्रौ शपथवचनं स्वीकरिष्यति। अपि च पैरिस ओलम्पिकीति क्रीडाकुम्भे भारतीयः मल्लयोद्धा अमन सेहरावतः 57 किलोग्राम वर्गस्य फ्रीस्टाइल इति उपान्त्यचक्रीय क्रीडायां प्रवेशं कृतवान्। इदानीं वार्ताः विस्तरेण। चतुर्विंशत्यधिकद्विसहस्रतम वर्षस्य वक्फ संशोधन विधेयकं निरीक्षणार्थं संयुक्त संसदीय समितिं प्रति प्रेषितम्। अद्य लोकसभायाम् अस्य विधेयकस्य प्रस्तुतेः अनन्तरम् अल्पसंख्यक कार्यमन्त्री किरण रिजिजुः उक्तवान् यत् प्रशासनं विधिगत निरीक्षणार्थं तत्परमस्ति। असौ अग्रे उक्तवान् यत् केन्द्रप्रशासनस्य विचारः स्पष्टमस्ति। श्री रिजिजुः 95-तम वर्षीयं वक्फ अधिनियम इत्यस्य संशोधनार्थं निम्न सदनस्य पुरः स्थापितवान्। विधेयकं राज्य वक्फ बोर्ड इत्येतेषाम् अधिकारैः कार्यैः च सह सम्बन्धान् विषयान् अवलम्ब्य अस्ति। मन्त्रिणा स्पष्टीकृतं यत् अस्य विधेयकस्य उद्देश्यं धार्मिकनिकायस्य कार्याचरणे हस्तक्षेपकरणं नास्ति। अपि च इदं विधेयकं मुस्लिम समुदायस्य वञ्चित निर्धन वर्गेभ्यः न्यायप्रदानमस्ति। अयं प्रसङ्गः संविधानस्य समवर्ती सूच्याः अन्तर्गतं निहितं वर्तते। केन्द्रप्रशासनस्य च पार्श्वे एतदर्थं पर्याप्त क्षमतापि विद्यते। केन्द्रीय वित्तमन्त्री निर्मला सीतारामन इत्येषा राज्यसभायां विनियोग विधेयक जम्मू कश्मीर विनियोग विधेयक वित्त विधेयकानि च प्रस्तुतवती। एतानि विधेयकानि ह्यः लोकसभायां पारितानि, सम्प्रति राज्यसभायां चर्चारतानि सन्ति। बांग्लादेशे नोबेल पुरस्कार विजेतुः प्रोफेसर मोहम्मद यूनुसस्य नेतृत्वे अल्पावधिकरूपेण नियोजितं प्रशासनम् अद्य रात्रौ शपथवचनं स्वीकरिष्यति। अनेन सहैव सेनाप्रमुखः जनरल वकार उज जमा इत्येषः सूचितवान् यत् प्रायशः 15 जनाः अपि अस्य अल्पावधिक प्रशासनस्य परामर्शाय शपथवचनं स्वीकर्तुं शक्नुवन्ति। असौ देशे त्रिषु चतुर्षु दिवसेषु च स्थितिः सामान्या भविष्यति इति सम्भावनाम् अपि प्रकटितवान्। अत्रान्तरे सेनया देशवासिनः निवेदिताः यत् केषाञ्चित् जनानां पार्श्वे यदि हिंसा वध पारस्परिक संघर्षाणां संचेतना आगमिष्यति तदा पीडितजनैः निकटस्थे सैन्यशिबिरे सम्पर्कः साधितव्यः इति। प्रधानमन्त्रिणः नरेन्द्रमोदिनः शनिवासरे भूस्खलनेन व्याकुलितं वायनाड नगरं प्रति भ्रमणं निर्धारितमस्ति। प्रधानमन्त्रिणः कन्नूर वायनाड नगरयोः भ्रमणार्थं सर्वाः व्यवस्थाः क्रियन्ते। यात्रायाः पूर्वम् अद्य कन्नूर वायनाड नगरयोः सुरक्षासमितयः अपि आयोजिताः। प्रधानमन्त्री वायनाड नगरस्य भूस्खलनेन प्रभावितस्य क्षेत्रस्य उदग्र विमानेन सर्वेक्षणं करिष्यति इति सम्भावना दरीदृश्यते। अत्रान्तरे केरल कर्णाटकयोः सेनाविभागेभ्य आहूताः प्रायशः 500 सैनिकाः वायनाड नगरात् प्रत्यागन्तुं निश्चितवन्तः। नवनिर्मितं बैली सेतुं सुदृढीकर्तुं दलमेकं उदग्रविमानान्वेषणदलं च इतोऽपि कतिपयानि दिनानि यावत् वायनाड नगरे एव स्थास्यन्ति। अद्य अपहराणे मण्डल समाहर्ता कार्यालये सशस्त्रसेनाबलं स्नेहपूर्वकं गमनानुमतिं प्राप्तवत्। राज्यमन्त्रिणौ पीए मोहम्मद रियासः एके ससिन्द्रं च उपस्थितौ आस्ताम्। विगत 9 दिनानि यावत् प्रचलितस्य अन्वेषणस्य उद्धारकार्यस्य च कृते स्थानीयजनैः दत्तसमर्थनाय सेनाकर्मचारिणः कृतज्ञतां प्रकटितवन्तः। संस्कृत वार्तायाः संस्करणमिदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव कार्यक्रमोऽयम् आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ च न्यूज ऑन एआईआर इति चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्य स्वीय न्यूजीलैंड देशस्य यात्रावधौ वेलिंगटन स्थिते प्रशासकीय सदने प्रधानमन्त्रिणा क्रिस्टोर लक्सन इत्यनेन उपप्रधानमन्त्रिणा विदेशमन्त्रिणा च विंस्टन पीटर्स इत्यनेन साकं द्विपक्षीय वार्तां विहितवती। अत्रावधौ सीमा शुल्क सहयोग परम्परागत चिकित्सा नवीकरणीयोर्जा प्रसंगेषु चर्चा समनुष्ठिता। अस्माकं वार्ताहरेण विज्ञापितं यत् उभौ नेतारौ सकारात्मक स्तरे इमां द्विपक्षीय वार्तां साधितवन्तौ। उभयोः देशयोर्मध्ये व्यापार सहभागित्वमपि सरलं भविष्यति। अपरत्र न्यूजीलैंड देशेन एतस्मिन् व्यापार क्षेत्रे संयुक्तानुसन्धान विकासयोः अवसराणां संवर्धनाय मार्गाः अपि प्रशस्तीकृताः अथ च अन्ताराष्ट्रिय सौर संयुतेः अनुमोदनम् अपि विहितम्। रक्षामंत्री राजनाथ सिंह अद्य पेरिस ओलंपिक क्रीडायां पदकद्वय विजेत्र्या मनु भाकर इत्यनया साकं मेलनं कृतवान्। सामाजिक संचार पटले श्री सिंह अवोचत् यत् मनु भाकर पेरिस ओलंपिक क्रीडायां राष्ट्राय द्वे कांस्य पदके विजित्य ऐतिह्यं विरचितवती। तस्याः अद्वितीयोत्कृष्ट प्रदर्शनेन प्रत्येकं भारतीयाः उत्साहिनः सन्ति। विनेश फोगाट इत्येषा पेरिस ओलंपिक क्रीडायाः मल्लयुद्धस्य निर्णायक द्वन्द्वे शरीरस्य अतिभारस्य कारणेन ह्यः अयोग्या घोषिता जाता। तदनु एषा मल्लयुद्ध क्रीडिका क्रीडायाः सन्यासस्य घोषणां कृतवती। अनया इमा सूचना एक्स इत्याख्ये अन्तर्जालपटले समुद्घोषिता। चतुर्विंशत्यधिक द्विसहस्रतम वर्षयोः वित्तीयवर्षाय स्वकीयायाः तृतीयायाः द्वैमासिक समित्याः उपवेशने भारतीय रिजर्व बैंक इत्यनेन प्रवर्तमान वित्तवर्षाय सकल गृह उत्पादस्य वृद्धिमूल्यस्य पूर्वानुमानं 7.2% इति यथावदेव स्थापितम्। भारतीय रिजर्व बैंक इत्येतस्य प्रमुख शक्तिकांत दास सूचितवान् यत् मौद्रिक नीति समिति 6 सदस्येषु 4 सदस्यानां बहुमतेन निक्षेप मूल्यं 6.5% अपरिवर्त्य निर्णयं निर्णीतवती। भारतीय रिजर्व बैंक इत्याख्येन नैरन्तर्येण नवम वारमपि नीतिगत मूल्यं यथावदेव स्थापनस्य निर्णयः गृहीतः। अद्य श्रावण शुक्ल चतुर्थ्यां संस्कृत भाषायां शपथ ग्रहण स्वीकर्तृणां सांसदानां सम्मान समारोहः मुख्य समिति कक्षः नवदेहली इत्यत्र संस्कृत भारती पक्षतः संसदीय भवनस्य सम्मुख इत्यत्र आचर्यते। 18 लोकसभायां 22 अथ च वर्तमान राज्यसभायां 3 माननीयाः सांसदाः संस्कृत भाषया शपथं विधाय आत्मनः संस्कृतानुरागं शास्त्र संरक्षण संकल्पं च प्रकटितवन्तः। तादृशाः आहत्य 25 सदस्याः सन्ति। कार्यक्रमे मुख्यातिथिः केन्द्रीय शिक्षा राज्यमन्त्री भारत सर्वकारः डॉ सुकांत मजुमदारः मुख्यवक्ता च अखिल भारतीय संघटन मन्त्री संस्कृत भारती दिनेश कामतः आस्ति। पेरिस ओलंपिक इति क्रीडाकुम्भे भारतीय मल्लयोद्धा अमन सेहरावतः अल्बानिया देशस्य जेलिम खान अबकारोवं पराजित्य 57 किलोग्रामस्य फ्रीस्टाइल इति मल्लयुद्धवर्गस्य उपान्त्यचक्र क्रीडायां प्रवेशं कृतवान्। तस्य विजयेन भारतस्य मल्लयुद्धे पदकस्य आशा पुनः प्रज्वलिता। विशेषतः ह्यस्तनस्य विनेश फोगाटस्य हृदयविदारक प्रकरणानन्तरम् तदरिक्तं ओलंपिक विजेता नीरज चोपड़ा कुंतल क्षेपणस्य अंतिमचक्रे स्वस्य उपाधिं रक्षितुं लक्ष्यं करिष्यति। भारतीय हॉकी दलं स्पेन देशं विरुध्य कांस्य पदकाय क्रीडिष्यति इति वार्ताः।